కవిం కవీనాముపమశ్రవస్తమం జ్యేష్ఠరాజం బ్రహ్మణాం బ్రహ్మణస్పత ఆన శృణ్వన్ నోతిభిః సీదసాదనం ప్రణో దేవీ సరస్వతీ వాజేభిర్వాజినీవతీ ధీనామవిత్రయవతో గణేశాయ నమః సరస్వత్యై నమః శ్రీగురుభ్యో నమః హరిః ఓం ఓం నమో భగవతే రుద్రాయ ఓం నమస్తే రుద్రమన్యవ ఉతోత ఇషవే నమః నమస్తే అస్తు ధన్వనే బాహుభ్యాముతతే నమః యాత ఇషః శివతమా శివం బభూవతే ధనుః శివాశరవ్యాయాతవతయా నో రుద్రమృడయా యాతే రుద్ర శివా తనోర ఘోర పాపకాశిని తయానస్తను వాశంతమయా గిరిశంతాభి చాకశీ యామిషం గిరిశంత హస్తే వివర్ష్యస్తవే శివాం గిరిత్రతాం కురు మాహి గుంసి పురుషం జగత్ శివేన వచసా త్వా గిరిసాచ్ఛావరామసి యతా నః సర్వమిజ్జగత యక్ష్మగుం స్వమనా అసత్ అధ్యవోచదది వక్తా ప్రథమో దైవ్యో విశక్ అయేగశ్చ సర్వాన్ జంభయన్ సర్వాశ్చ యాతు ధాన్యః అసౌ యస్తామ్రో అరుణ ఉత వభ్రస్వ మంగళః యే చేమాగుం రుద్ర అభితో దిక్ష శ్రుత సహస్రశో వైశాగుం హేడయీమహే అసవ్యో వసర్పతి నీలగ్రీవో విలోహితః ఉతైనం గోపా అదృశన్నదృశన్నదహార్యః ఉతైనం విశ్వభూతాని సదృష్టో మృడయాతినః నమో అస్తు నీలగ్రీవాయ సహస్రాక్షాయ మీడుషే అథో యే అస్య సత్వానోహం తేభ్యో కరణ్ నమః ప్రముంచ ధన్వనస్త్వముపయోరాత్మయోర్జ్యాం యాస్య తేహస్త ఇషవ పరాత భగవో వప అవతత్యధనుస్త్వగుం సహస్రాక్షశతేషు దే నిషేర్య శల్యానాముకా శివో నః సుమనాభవ విర్జ్యం ధనుః కపర్దినో విశల్యో బాణవాగుం ఉత అనేషన్నస్యేషవ ఆవులస్య నిషంగతిః యాతే హేతిర్మీడుష్టమహస్తే బభూవతే ధనుః తయాస్మాన్ విశ్వతస్త్వమయక్ష్మయా పరిభుజ నమస్తే అస్వాయుధాయ నాతటాయ ధృష్ణవే ఉభావ్యాముతతే నమో బాహుభ్యాం తవ ధన్వనే పరితే ధన్వనో హేతిరస్మాన్ వృణక్తు విశ్వతః అథో యైషు దిస్తవారి అస్మన్నిదేహితం నమస్తే అస్తు భగవన్ విశ్వేశ్వరాయ మహాదేవాయ త్రయంబకాయ త్రిపురాంతకాయ త్రికాగ్నికాలాయ కాలాగ్నిరుద్రాయ నీలకంఠాయ మృత్యుంజయాయ సర్వేశ్వరాయ సదాశివాయ శ్రీమన్మహాదేవాయ నమః नमो हिरण्यबाहवे सेनान्ये दिशां च वतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पदये नमो नमः स्वस्मिञ्जरायत्विषेवते पथीनां पदये नमो नमो बभ्लुषाय विव्याधिने नानां पदये नमो नमो हरिकेशायोपवीतिने पुष्टानां पदये नमो नमो भवस्य हेत्यै जगतां पदये नमो नमो रुद्राय तथा विनिक्षेत्राणां पदये नमो नमः सूताय हन्त्याय वनानां पदये नमो नमो रोहिताय स्तपतये वृक्षाणां पदये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पदये नमो नमो भुवन्तये वारिवस्कृतायौषधीनां पदये नमो नम उच्चैर्घोषाय क्रन्दयते पत्तीनां पदये नमो नम कृष्णवीता यथावते सत्त्वनां पदये नमः नमः सहमानाय निव्याधिन आव्याधिनीनां पदये नमो नम ककुवाय निषङ्गिणे स्तेनानां पदये नमो नमो निषङ्गिण इषु धिमते तस्कराणां पदये नमो नमो वञ्चते परिवञ्चते स्थायूनां पदये नमो नमो निचेरवे परिचरायारण्यानां पदये नमो नमः सृगाविभ्यो जिगागुंसद्भ्यो मुष्णताम् पदये नमो नमोऽसि मद्भ्यो नक्तम् चरद्भ्यः प्रकृन्तानाम् पदये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पदये नमो नम इषु मद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्य प्रतिदधानेभ्यश्च वो नमो नम आयच्छन्व्यो विसृजभ्यश्च वो नमो नमोऽस्यन्व्यो विद्यभ्यश्च वो नमो नम आसीनेभ्यश्चयानेभ्यश्च वो नमो नम स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम तिष्ठद्भ्यो दामभ्यश्च वो नमो नम सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः नम आव्याधिनेभ्यो विविध्यन्तेभ्यश्च वो नमो नम उगराभ्यस्त्रिगुंहतेभ्यश्च वो नमो नमो ग्रस्येभ्यो ग्रस्वपतिभ्यश्च वो नमो नमो भ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथेभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नम सेनाभ्यस्तेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमः रक्षव्योरथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नमः शुक्रद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो मृगयोभ्यश्वनेभ्यश्च वो नमो नमः श्वभ्यश्वपदेभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कवर्दिने च युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिविविष्टाय च नमो मेरुष्टमाय चेशुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृत्वरे च नमो अग्र्याय च प्रथमाय च नमः आशवे चाजिराय च नमः शीघ्रियाय च शेभ्याय च नमः ऊर्म्याय चावस्वन्याय च नमः श्रोतस्याय च द्वेप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय च परजाय च नमो मध्यमाय च प्रगल्भाय च नमो जघन्याय च बुद्धयाय च नमः सोऽज्ञाय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च खल्याय च नमः श्रोक्याय चावसान्याय च नमो मन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय चाशुरथाय च नमः शोराय चावविन्दते च नमो वल्मिने च वरोदिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दन्दुभ्याय च हनन्याय च नमो विष्णवे च प्रमशाय च नमो नूताय च प्रहिताय च नमो निषङ्गिने चेशुधिमते च नमस्ते शेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च वक्त्याय च नमः कार्याय च नीप्याय च नमः सोद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कोप्याय च वट्याय च नमो वर्ष्याय च वर्ष्याय च नमो मेघ्याय च विद्युत्याय च नमः इन्द्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुवाय च ॐ हर 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 ॐ नमः सोमाय च रुद्राय च नमः ताम्राय च अरुणाय च नमः शङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः तेत्याय च कुल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आतार्याय च लाग्याय च नमः सस्प्याय च पेन्याय च नमः सिकत्याय च प्रवाह्याय च नम इरिण्याय च प्रपत्याय च नमः केगुंशिराय च शयनाय च नमः नवर्णिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमः सल्प्याय च गेह्याय च नमः कार्याय च गह्वरेष्ठाय च नमो हृदयाय च निवेश्याय च नमः पागुं सव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोक्याय चोलप्याय च नमः ऊर्व्याय च सूर्याय च नमः पर्याय च वर्णशद्याय च नमो पगुरमानाय चाभिघ्नते च नमः आख्यदते च प्रख्यदते च नमो वक्रिकेभ्यो देवानां हृदयेभ्यो नमो विक्षेदकेभ्यो नमो विचिन्वक्केभ्यो नम आनिर्हतेभ्यो नम आमीवक्केभ्यः द्रापे अन्धसस्पते दरिद्रन्नीललोहिता येषाम् पुरुषाणामेषाम् पशूनाम् मा वेर्मा रोमो येषाम् किञ्चन ममत या ते रुद्र शिवा तनो शिवा विश्वाः भेषजे शिवा रुद्रस्य भेषजे तया नो मृणजीवसे इमागुम् रुद्राय तवसे कवर्दिने क्षयद्वेराय प्रवरामहे मतिम् यता नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्ननातुरम् मृडानो रुद्रो तनो मयस्कृति क्षयद्वेराय नमसा विदेवते यच्छम् च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ मानो महान्तमुतमानो अर्वकम् मान उक्षन्तमुतमान उक्षितम् मानो वदे पितरम् मोत मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषिमानो गोषुमानो अश्वेषुरीरिषः वीरान्मानो रुद्रवामितो वदेर्हविष्मन्तो नमसा विदेवते आरात्ते गोग्न उत पोरुषग्ने क्षयद्वेराय स्वम् नमस्वेते अस्तु रक्षा च नो अदि च देव प्रूयता च नः शर्वयच्च द्विवराः स्तुहि श्रुतम् गत्त सरञ्जुवानम् ृगन्न भीममुपहत्वमुग्रम् मृडाचरित्रेणुद्रस्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः परिणो रुद्रस्य हेतिर्मृणक्त्वपरित्वेषस्य दुर्मतिरगायो अवस्थिरामणवद्भ्यस्तनुष्वमीडुस्तोकायतनयाय मृडया मेडुष्टमशिवतमशिवो नः सुमना भव परमे वृक्ष आयुधन्निलाय कृत्तिम् वसा न आचर पिनाकम् विभ्रगागहे विकीर्ण विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्वन्निवपन्तु ताः सहस्राणि सहस्रदा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृते सहस्राणि सहस्रशो ये रुद्रा हरिभूम्याम् तेषागुम् सहस्रयो जने वधन्वानि तन्मसे अस्मिन् महत्यर्णवेन्तरिक्षे भवा अदि नीलग्रीवाश्रितिकण्ठा सर्वा अधः क्षमाचराः नीलग्रीवाश्रितिकण्ठा दिवगुम् रुद्रा उपश्रिताः ये वृक्षेषु सस्मेजरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिकासक्कवर्दिनः ये अन्येषु विवृत्यन्ति पात्रेषु विवतो जनान् ये पताम् पथिरक्षय ऐलवृदायव्युदः ये तीर्थानि प्रचरन्ति श्रृकावन्तो निषङ्गिणः ಯೇತಾವಂತಶ್ಚ ಭೂಯಾಗುಂಸಸ್ಯ ದಿಶೋ ರುದ್ರಾವಿತಸ್ತಿರೇ ತೇಷಾಗುಂಸಾಶ್ರಯೋ ಜನೇ ವಧನ್ವಾನಿ ತನ್ಮಸೇ ನಮೋ ರುದ್ರೇಭ್ಯೋ ಯೇ ಪೃಥಿವ್ಯಾಂ ಯೇಂತರಿಕ್ಷೇ ಯೇ ದಿವಿ ಯೇಷಾಮನ್ನಂ ವಾತೋ ವರ್ಷಮಿಷವಸ್ತೇಭ್ಯೋ ದಶ ಪ್ರಾಚೇ ದಶ ದಕ್ಷಿಣಾ ದಶ ಪ್ರತಿ ಶೀರ್ದಶೋ ದೇಚೇರ್ದಶೋರ್ಗಾಸ್ತೇಭ್ಯೋ ನಮಸ್ತೆ ನೋ ಮೃಡಯಂತು ತೇಯಂ ವಿಶ್ವೋ ಯಶ್ಚ ನೋ ವೇಷ್ಟಿತಂ ಭೋಜಂ ವೇ ದದಾಮಿ ತ್ರ್ಯಂಬಕಂ ಯಜಾಮಹೇ ಸುಗಂಧಿಂ ಪುಷ್ಟಿವರ್ಧನಂ ಅರ್ವಾರುಕಮಿವ ವಂದನಾನ್ ಮೃತ್ಯೋರ್ಮುಕ್ಷೀಯಾಮೃತಾತ್ ಯೋ ರುದ್ರೋ ಅಗ್ನವ್ಯೋ ಅಪ್ಸು ಯ ಔಷಧೇಶು ಯೋ ರುದ್ರೋ ವಿಶ್ವಾಮುವನಾಧಿವೇಶ ತಸ್ಮೈ ರುದ್ರಾಯ ನಮೋ ಅಸ್ತು ಏತೆ ಸಹಸ್ರಮಯುತಂ ಪಾಶಾ ಮೃತ್ಯೋರ್ಮರ್ತ್ಯಾಯ ಹಂತವೇ ತಾನ್ ಯಜ್ಞಸ್ಯ ಮಾಯಯಾ ಸರ್ವಾನವಯಜಾಮಹೇ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಮೃತ್ಯವೇ ಸ್ವಾಹಾ ಪ್ರಾಣಾನಾಂ ಗ್ರಂಥಿರಸಿ ರುದ್ರೋ ಮಾ ವಿಶಾಂತಕಃ ತೇನಾನೇನಾಪ್ಯಾಯಸ್ವ ನಮೋ ರುದ್ರಾಯ ವಿಷ್ಣವೇ ಮೃತ್ಯುರ್ಮೇ ಪಾಹಿ ತಮಸ್ತು ಹಿ ಯಸ್ವಸ್ವದನ್ವಾಯೋ ವಿಶ್ವಸ್ಯ ಕ್ಷಯತಿ ವೇ ಸಜಸ್ಯ ಯಕ್ಷ್ವಾ ಮಹೇಶೋ ಮನಸಾಯ ರುದ್ರಂ ನಮೋ ಹೃದೇವಮಸುರಂ ದುವಸ್ಯ ಅಯಂ ಮೇ ಹಸ್ತೋ ಭಗವಾನ್ ಅಯಂ ಮೇ ಭಗವತ್ತರಃ
ಅಯಂ ಮೇ ವಿಶ್ವವೇಶ ಯೋ ಯಗುಂ ಶಿವಾಭಿಮರುಷನಃ ಓಂ ಶಾಂತಿ 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 ಓಂ
ಅಗ್ನಾ ವಿಷ್ಣೋ ಸಜೋಷ ಸೇವಾ ವರ್ಧಂತು ಭಾಂಗಿರಃ ಜುಮ್ನೈ ವಾಜೇಭಿರಾಗತಂ ವಾಜಶ್ಚ ಮೇ ಪ್ರಸವಶ್ಚ ಮೇ ಪ್ರಯತಿಶ್ಚ ಮೇ ಪ್ರಸಿದಿಶ್ಚ ಮೇ ನೇತಿಶ್ಚ ಮೇ ಕ್ರತುಶ್ಚ ಮೇ ಸ್ವರಶ್ಚ ಮೇ ಶ್ಲೋಕಶ್ಚ ಮೇ ಶ್ರಾವಶ್ಚ ಮೇ ಶ್ರುತಿಶ್ಚ ಮೇ ಜ್ಯೋತಿಶ್ಚ ಮೇ ಸುವಶ್ಚ ಮೇ ಪ್ರಾಣಶ್ಚ ಮೇ ಪಾನಶ್ಚ ಮೇ ವ್ಯಾನಶ್ಚ ಮೇ ಸುಶ್ಚ ಮೇ ಚಿತ್ತಂಚ ಮಹಾದೇತಂಚ ಮೇ ವಾಚ್ಯ ಮೇ ಮನಶ್ಚ ಮೇ ಚಕ್ಷುಶ್ಚ ಮೇ ಶ್ರೋತ್ರಂ ಚ ಮೇ ದಕ್ಷಶ್ಚ ಮೇ ಬಲಂ ಚ ಮಓಜಶ್ಚ ಮೇ ಸಹಶ್ಚ ಮ ಆಯುಶ್ಚ ಮೇ ಜರಾ ಚ ಮ ಆತ್ಮಾ ಚ ಮೇ ತನೋಶ್ಚ ಮೇ ಶರ್ಮ ಚ ಮೇ ವರ್ಮ ಚ ಮೇ ಗಾನಿ ಚ ಮೇ ಸ್ಥಾನಿ ಚ ಮೇ ಪರೋಗುಂಷಿ ಚ ಮೇ ಶರೀರಾಣಿ ಚ ಮೇ ಜೈಷ್ಠ್ಯಂ ಚ ಮ ಆಧಿಪತ್ಯಂ ಚ ಮೇ ಮನ್ಯುಶ್ಚ ಮೇ ಭಾಮಶ್ಚ ಮೇ ಮಶ್ಚ ಮೇಂಭಶ್ಚ ಮೇ ಜೇಮಾ ಚ ಮೇ ಮಹಿಮಾ ಚ ಮೇ ವರಿಮಾ ಚ ಮೇ ಪ್ರತಿಮಾ ಚ ಮೇ ವರ್ಷ್ಮಾ ಚ ಮೇ ದ್ರಾಘುಯಾ ಚ ಮೇ ವೃದ್ಧಂ ಚ ಮೇ ವೃದ್ಧಿಶ್ಚ ಮೇ ಸತ್ಯಂ ಚ ಮೇ ಶ್ರದ್ಧಾ ಚ ಮೇ ಜಗಚ್ಚ ಮೇ ಧನಂ ಚ ಮೇ ವಶಶ್ಚ ಮೇ ತ್ವಿಶಿಶ್ಚ ಮೇ ಕ್ರೀಡಾ ಚ ಮೇ ಮೋದಶ್ಚ ಮೇ ಜಾತಂ ಚ ಮೇ ಜನಿಷ್ಯಮಾನಂ ಚ ಮೇ ಸೂಕ್ತಂ ಚ ಮೇ ಸುಕೃತಂ ಚ ಮೇ ವಿತ್ತಂ ಚ ಮೇ ವೇದ್ಯಂ ಚ ಮೇ ಭೂತಂ ಚ ಮೇ ಭವಿಷ್ಯಚ್ಚ ಮೇ ಸುಗಂ ಚ ಮೇ ಸುಪತಂ ಚ ಮರುದ್ಧಂ ಚ ಮರುದ್ಧಿಶ್ಚ ಮೇ ಕ್ಲುಪ್ತಂ ಚ ಮೇ ಕ್ಲುಪ್ತಿಶ್ಚ ಮೇ ಮತಿಶ್ಚ ಮೇ ಸುಮತಿಶ್ಚ ಮೇ ಶಂಚ ಮೇ ಮಯಶ್ಚ ಮೇ ಪ್ರಿಯಂ ಚ ಮೇ ನು ಕಾಮಶ್ಚ ಮೇ ಕಾಮಶ್ಚ ಮೇ ಸೌಮನಸಶ್ಚ ಮೇ ಭದ್ರಂ ಚ ಮೇ ಶ್ರೇಯಶ್ಚ ಮೇ ವಶ್ಯಶ್ಚ ಮೇ ಯಶಶ್ಚ ಮೇ ಭಗಶ್ಚ ಮೇ ದ್ರವಿಣಂ ಚ ಮೇ ಯಂತಾ ಚ ಮೇ ಧರ್ತಾ ಚ ಮೇ ಕ್ಷೇಮಶ್ಚ ಮೇ ಧೃತಿಶ್ಚ ಮೇ ವಿಶ್ವಂ ಚ ಮೇ ಮಹಶ್ಚ ಮೇ
संविच्यमे यात्रं च मे सोऽस्यमे प्रसोऽस्यमे शेरं च मे लयश्च मरुतं च मे मृतं च मे यक्ष्मं च मे नामयच्च मे जीवातुश्च मे दीर्घायुत्वं च मे न मित्रं च मे भयं च मे सुगं च मे शयनं च मे सोषा च मे सुदिनं च मे ओर्च मे सोनृता च मे पयश्च मे रसश्च मे घृतं च मे मधु च मे सग्दिश्च मे सपेतिश्च मे कृषिश्च मे वृष्टिश्च मे चैत्रं च म औद्भिद्यं च मे रयिश्च मे रायश्च मे पुष्टं च मे पुष्टिश्च मे विभु च मे प्रभु च मे बहु च मे भूयश्च मे पूर्णं च मे पूर्णतरं च मे क्षितिश्च मे कूयवाश्च मे नं च मे क्षुच्च मे व्रीहयश्च मे यवाश्च मे माशाश्च मे तिलाश्च मे मुद्राश्च मे खल्वाश्च मे गोधूमाश्च मे मसुराश्च मे प्रियङ्गवश्च मे नवश्च मे श्यामाकाश्च मे नीवाराश्च मे अश्मा च मे मृत्तिका च मे गिरयश्च मे पर्वताश्च मे सिकताश्च मे वनस्पतयश्च मे हिरण्यं च मे यश्च मे शेषं च मे त्रपुश्च मे श्यामं च मे लोहं च मे अग्निश्च म आपश्च मे विरुधश्च म ओषधयश्च मे कृष्टपच्यं च मे कृष्टपच्यं च मे ग्राम्याश्च मे पशव आरण्याश्च यज्ञेन कल्पन्ताम् वित्तं च मे वित्तिश्च मे भूतं च मे भूतिश्च मे वसु च मे वसतिश्च मे कर्म च मे शक्तिश्च मे अर्थश्च म एमश्च म इतिश्च मे गतिश्च मे अग्निश्च म इन्द्रश्च मे सोमश्च म इन्द्रश्च मे सविता च म इन्द्रश्च मे सरस्वती च म इन्द्रश्च मे पूषा च म इन्द्रश्च मे बृहस्पतिश्च म इन्द्रश्च मे मित्रश्च म इन्द्रश्च मे वरुणश्च म इन्द्रश्च मे त्वष्टा च म इन्द्रश्च मे धाता च म इन्द्रश्च मे विष्णुश्च म इन्द्रश्च मे श्विनौ च म इन्द्रश्च मे मरुतश्च म इन्द्रश्च मे विश्वे च मे देवा इन्द्रश्च मे पृथिवी च म इन्द्रश्च मेऽन्तरिक्षं च म इन्द्रश्च मे द्यौश्च म इन्द्रश्च मे दिशश्च म इन्द्रश्च मे मूर्धा च म इन्द्रश्च मे प्रजापतिश्च म इन्द्रश्च मे अगुंसुश्च मे रश्मिश्च मे दाभ्यश्च मे धिपतिश्च म उपागुंसुश्च मे अन्तर्यामश्च म ऐन्द्रवायवश्च मे मैत्रावरुणश्च म अश्विनश्च मे प्रतिप्रस्थानश्च मे शुक्रश्च मे मन्ते च म आग्रयणश्च मे वैश्वदेवश्च मे ध्रुवश्च मे वैश्वानरश्च मरुतु ग्रहाश्च मे त्रिग्राह्याश्च म ऐन्द्राग्नश्च मे वैश्वदेवश्च मे मरुत्पतेयाश्च मे माहेन्द्रश्च म आदित्यश्च मे सावित्रश्च मे सारस्वतश्च मे पौष्णश्च मे पात्रीवतश्च मे हार्योजनश्च मे इद्मश्च मे बर्हिश्च मे वेदिश्च मे धिष्णीयाश्च मे सृजश्च मे चमसाश्च मे गावाणश्च मे स्वरवश्च उपरवाश्च मे దిశవణి చ మే ద్రోణకలశ్చ మే వాయవ్యాని చ మే పూతభృచ్చ మాధవనీయశ్చ మాగ్నేద్రం చ మే హవిర్ధానం చ మే గృహాశ్చ మే సదశ్చ మే పురోడశాశ్చ మే పచతాశ్చ మే వభృతశ్చ మే స్వగాకారశ్చ మే అగ్నిశ్చ మే ఘర్మశ్చ మేర్కశ్చ మే సూర్యశ్చ మే ప్రాణశ్చ మే శ్వమేధశ్చ మే పృథివీ చ మే దితిశ్చ మే దితిశ్చ మే ద్యౌశ్చ మే శక్వరే రంగులయో దిశశ్చ మే యజ్ఞేన కల్పంతామృక్ష మే సామ చ మే సోమశ్చ మే యజుశ్చ మే దీక్షా చ మే తపశ్చ మరుతుశ్చ మే వ్రతం చ మే హోరాత్రయోర్వృష్ట్యా బృహద్రథంతరే చ మే యజ్ఞేన కల్పేతాం గర్భాశ్చ మే వత్సాశ్చ మే త్రయవిశ్చ మే త్రయవే చ మే దిత్యవాశ్చ మే దిత్యౌహే చ మే పంచావిశ్చ మే పంచావే చ మే త్రివత్సశ్చ మే త్రివత్సా చ మే తుర్యవాశ్చ మే తుర్యౌహే చ మే పష్ఠవాచ మే పష్ఠౌహే చ మఉక్షా చ మే వశా చ మఋషభశ్చ మే వేహశ్చ మే నడ్వాంచ మే ధేనుశ్చ మఆయుర్యజ్ఞేన కల్పతాం ప్రాణో యజ్ఞేన కల్పతాం అపానో యజ్ఞేన కల్పతాం జ్ఞానో యజ్ఞేన కల్పతాం చక్షుర్యజ్ఞేన కల్పతాం గుశ్రోత్రై యజ్ఞేన కల్పతాం మనో యజ్ఞేన కల్పతాం వాక్ యజ్ఞేన కల్పతాం ఆత్మా యజ్ఞేన కల్పతాం యజ్ఞో యజ్ఞేన కల్పతాం ఏకా చ మే తిస్రశ్చ మే పంచ చ మే సప్త చ మే నవ చ మే ఏకాదశ చ మే త్రయోదశ చ మే పంచదశ చ మే సప్తదశ చ మే నవదశ చ మే ఏకవిగుంశతిశ్చ మే త్రయోవిగుంశతిశ్చ మే పంచవిగుంశతిశ్చ మే సప్తవిగుంశతిశ్చ మే నవవిగుంశతిశ్చ మే ఏకత్రిగుంశచ్చ మే త్రయస్త్రిగుంశచ్చ మే చతస్రశ్చ మే అష్టౌ చ మే ద్వాదశ చ మే షోడశ చ మే విగుంశతిశ్చ మే చతుర్విగుంశతిశ్చ మే అష్టావిగుంశతిశ్చ మే ద్వాత్రిగుంశచ్చ మే షట్త్రిగుంశచ్చ మే చత్వారిగుంశచ్చ మే చతుశ్చత్వారిగుంశచ్చ మేష్టా చత్వారిగుంశచ్చ మే వాజశ్చ ప్రసవశ్చ పిజశ్చ క్రతుశ్చ సువశ్చ మూర్ధా చ వ్యస్నియశ్చాంత్యాయనశ్చాంత్యశ్చ భువనశ్చ భువనశ్చాధిపతిశ్చ ఇలా దేవహోర్మనుర్యజ్ఞనిర్బృహస్పతిరుక్తా మదానిషగుంసి షద్విశ్వే దేవాసోట్టవాచ పృథివీమాతర్మాహిగుంసీర్మధుమనిష్యే మధుజనిష్యే మధువక్ష్యామి మధువదిష్యామి మధుమతీం దేవేభ్యో వాచముద్యాసగుంశుశ్రూషేణ్యాం మనుష్యేభ్యస్తం మా దేవా అవంతు శోభాయై పితరోను మదంతు ఓం శాంతి శాంతి శాంతిః ఓం అత్రినా త్వా క్రిమే హన్మే కన్వేన జమదగ్నినా విశ్వావసోద్బ్రహ్మణ హతః క్రిమీణాగుం రాజా అప్యేషాగుస్తపతిర్హతః అథో మాతాథో పితా అథో స్థూరా అథో క్షుద్రా అథో కృష్ణా అథో శ్వేతా
अथो आशातिका हताः श्वेताभिः सह सर्वे हताः आहरावद्या श्रुतस्य हविषो यथा तत्सत्यम् यदमय्यमस्य जम्भयोः आदधामि तथा हि तत् खण्फण्मृषि
ॐ शान्ति शान्ति शान्तिः ॐ
तच्छय्योरावृणीमहे गातुम् यज्ञाय गातुम् यज्ञपतये नैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वक्ति गातु वेषजम् शन्नो अस्तु द्विपदे शं चतुष्पदे ॐ शान्ति शान्ति शान्तिः सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् स भूमिम् विश्वतो भृत्वा अत्यतिष्ठद्दशाङ्गुलम् पुरुष एवेदगुम् सर्वम् यद्भूतम् यच्च भव्यम् उतामृतत्वशेषानः यदन्येनातिरोहति एतावानस्य महिमा अतो ज्यायागश्च पौरुषः पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतम् दिवि त्रिपादोर्ध्व उदैत्पुरुषः पादो सेहा भवात्पुनः ततो विश्वम् व्यक्रामत् शासनानशने अभि तस्माद्विराड जायत विराजो अधिपुरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः यत्पुरुषेण हविषा देवा यज्ञमतन्वता वसन्तो अस्यातिराज्यम् नेष्म इन्म शरन्नविः सप्तास्यासन् परिधयः त्रिसप्ततमिध कृताः देवा यद्यज्ञम् तन्वाणाः अवध्नन् पुरुषम् पशुम् तञ्यज्ञम् बर्हिषि प्रौक्षन्न पुरुषम् जातमग्नः तेन देवा अयजन्त साध्या ऋषयश्च ये तस्माद्यज्ञात् सर्वहुतः संभृतम् पृषदाज्यम् पशोगस्तागश्चक्रे वायव्यान आरण्यान् ग्राम्याश्च ये तस्माद्यज्ञात् सर्वहुतः च सामानि जज्ञिरे छन्दागुंसि जज्ञिरे तस्मात् यजुस्तस्मादजायत तस्मादश्वा अजायन्त एकेचो भयादकः गावो हजज्ञिरे तस्मात् तस्माज्जाता अजावयः यत्पुरुषम् व्यदधुः कतिधा व्यकल्पयन् मुखम् किमस्य कौ बाहु का भूरुपादावुच्येते ब्राह्मणो च मुखमासीत् बाहुराजन्यः कृतः ऊरु तदस्य यद्वैष्यः पद्भ्यागुंशोद्रो अजायत चन्द्रमा मनसो जातः चक्षो सूर्यो अजायत मुखादिन्द्रश्चाग्निश्च प्राणात् वायुरजायत नाभ्या आसीदन्तरिक्षम् श्रेष्ठोद्यो समवर्तत पद्भ्याम् भूमिर्दिश श्रोत्रात् तथा लोकागुम् अकल्पयन् वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसस्तु भारे सर्वाणि रूपाणि विचित्य धीरः नामानि कृत्वा विवदन्यदास्ते धाता पुरस्ताद्यमुदा जहार चक्र प्रविद्वान् प्रदिशश्च तस्रः तमेवं विद्वान् अमृत इह भवति नान्यः पन्था अयनाय विद्यते यज्ञेन यज्ञमयजन्त देवाः तानि धर्माणि प्रथमान्यासन् ते हनाकम् महिमानः सचन्ते यत्र पूर्वे साध्या सन्ति देवाः अद्भ्यः सम्भूतः पृथिव्यैरसा च विश्वकर्मणः समवर्तताधि तस्य त्वष्टा विदद्रूपमेति तत्पुरुषस्य विश्वमाजानमग्रे वेदाहमेतम् पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् तमेवम् विद्वानमृत इह भवति नान्यः पन्था विद्यते यनाय प्रजापतिश्चरति गर्भे अन्तः अजायमानो बहुधा विजायते तस्य देना परिजानन्ति योनिम् मरीचीनाम् पदमिच्छन्ति वेधसः यो देवेभ्य आतपति यो देवानाम् पुरोहितः पूर्वो यो देवेभ्यो जातः नमो रुचाय ब्राह्मये रुचम् ब्राह्मम् जनयन्तः देवा अग्रे तदब्रुवन् यत्त्वैवम् ब्राह्मणो विद्यात् तस्य देव असन्वशे रेश्च ते लक्ष्मीश्च पत्न्यो अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनो व्याप्तम् इष्टम् मनिषाणा अमुम् मनिषाणा सर्वम् मनिषाणा तच्छय्योरावृणीमहे गातुम् यज्ञपतये दैवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वम् जिगातु भेषजम् शन्नो अस्तु द्विपदे शञ्चतुष्पदे ॐ शान्ति शान्ति शान्तिः ईशान सर्वविद्यानाम् ईश्वर सर्वभूतानाम् ब्रह्माधिपति ब्रह्मणोऽधिपति ब्रह्म शिवो मे अस्तु सदा शिवो तद्विष्णोत्परमम् पदगुम् सदा पश्यन्ति सूरयः दिवेव चक्षुराततम् तद्विप्रासो विपन्यवो जाध्रुवागुंसः समिन्दते विष्णोर्यः परमम् पदम् नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णु प्रचोदयात् तत्पुरुषाय विद्महे महादेवाय धीमहि तन्नो रुद्र प्रचोदयात् ॐ साईश्वराय विद्महे सत्यदेवाय धीमहि तन्नः सर्वप्रचोदयात् हंस हंसाय विद्महे परमहंसाय धीमहि तन्नो हंस प्रचोदयात् स्वस्ति प्रजाभ्यः परिपालयन्ताम् न्यायेन मार्गेण महिमहेशाः गोब्राह्मणेभ्यः शुभमस्तु नित्यम् समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु समस्तलोकाः सुखिनो भवन्तु ॐ शान्ति शान्ति शान्ति